कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते उत्तिष्ठ नरशार्दूला कर्तव्यं दैवमाहिकम् कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते उत्तिष्ठ नरशार्दूला कर्तव्यं दैवमाहिकम् उत्तिष्ठोत्तिष्ठ गोविंद उत्तिष्ठ गरुड़ध्वज उत्तिष्ठ कमला कांता त्रैलोक्यं मंगलं कुरु उत्तिष्ठोत्तिष्ठ गोविंद उत्तिष्ठ गरुड़ध्वज उत्तिष्ठ कमला कांता त्रैलोक्यं मंगलं कुरु माता समस्त जगतां मधुकैटभारे वक्षो विहारिणी मनोहर दिव्य मूर्ते श्री स्वामिनी श्रुत जन प्रिय दानशीले श्री वेंकटेश दैते तव सुप्रभातम् माता समस्त जगतां मधुकैटभारे वक्षो विहारिणी मनोहर दिव्य मूर्ते श्री स्वामिनी श्रुत जन प्रिय दानशीले श्री वेंकटेश दैते तव सुप्रभातम् तव सुप्रभातम अरविंद लोचने भवतु प्रसन्न मुख चंद्र मंडले विधि शंकरेन्द्र वनिताभिरक्षिते वृषशैलनाथ दैते दयानिधे अत्र्यादि सप्त ऋषयः समुपास्य संध्याम् आकाश सिंधु कमलानि मनोहराणि आदाय पादयुगमर्चयितुं प्रपन्नाः शेषाद्रिशेखर विभो तव सुप्रभातम् पञ्चाननाब्ज भव षण्मुख वासवाद्याः त्रैविक्रमादि चरितं विबुधास्तुवन्ति भाषापथि पठति वासर शुद्धिमारात् शेषाद्रिशेखर विभो तव सुप्रभातम् ईषत् प्रफुल्ल सरसीरुह नारिकेळ पूगद्रुमादिषु मनोहर पालिकानाम् आवाति मन्दमनिलः सह दिव्य गन्धैः शेषाद्रिशेखर विभो तव सुप्रभातम् उन्मील्य नेत्रयुगमुत्तम पञ्जरस्थाः पात्र वशिष्ठ कदली फल पायसानि भुक्त्वा सलीलमथ केळि सुखा पठन्ति शेषाद्रिशेखर विभो तव सुप्रभातम् तंत्री प्रकर्ष मधुरस्वनया विपञ्ज्या गायत्यनन्त चरितं तव नारदोऽपि भाषा समग्रम सकृत्य रजारुरम्यम् शेषाद्रिशेखर विभो तव सुप्रभातम् भृङ्गावली च मकरन्द सानुविद्ध झङ्कार गीत निनदैः सह सेवनाय निर्यात्युपान्त सरसी कमलोदरेभ्यः शेषाद्रिशेखर विभो तव सुप्रभातम् योषा गणेन वरदग्नि विमथ्यमाने घोषालयेषु दधिमन्तन तीव्र घोषाः रोषात्यलिं विदधते ककुम्भ्य कुम्भाः शेषाद्रिशेखर विभो तव सुप्रभातम् पद्मेश मित्र शत पत्र गताळि वर्गाः हर्तुं श्रियं कुवलयस्य निजाङ्ग लक्ष्म्या भेरी निनादमिव बिभ्रति तीव्र नादम् शेषाद्रिशेखर विभो तव सुप्रभातम् श्रीमन्नभीष्ट वरदाखिल लोक बन्धो श्री श्रीनिवास जगदेक दयैक सिंधो श्री देवता गृह भुजांतर दिव्य मूर्ते श्री वेंकटाचलपते तव सुप्रभातम् श्रीमन्नभीष्ट वरदाखिल लोक बन्धो श्री श्रीनिवास जगदेक दयैक सिंधो श्री देवता गृह भुजांतर दिव्य मूर्ते श्री वेंकटाचलपते तव सुप्रभातम् श्री स्वामी पुष्करणिका प्लव निर्मलांगाः श्रेयोर्धिनो हर विरिञ्चि सनन्दनाद्याः द्वारे वसन्ति परवेत्र मदोत्तमांगाः श्री वेंकटाचलपते तव सुप्रभातम् श्रीशेषशैलगरुडाचल वेङ्कटाद्रि नारायणाद्रि वृषभाद्रि वृषाद्रि मुख्याम् आख्यां त्वदीय वसतेरनिशं वदन्ति श्रीवेङ्कटाचलपते तव सुप्रभातम् सेवा पराशिव सुरेश कृशानुधर्म रक्षोऽम्भुनाथ पवमान धनाधिनाथाः बद्धाञ्जलि प्रविलसन् निज शीर्ष देशाः श्रीवेङ्कटाचलपते तव सुप्रभातम् धाटीषु ते विहगराज मृगाधिराज नागाधिराज गजराज हयाधिराजाः स्वस्वाधिकार महिमाधिकमर्थयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् सूर्येन्दुभौम बुधवाक्पति काव्य सौरि स्वर्भानुकेतु दिविशत् परिषत् प्रधानाः त्वद्दास दास च रमावधि दास दासाः श्रीवेङ्कटाचलपते तव सुप्रभातम् त्वत्पाद धूलि भरित स्फुरितोत्तमाङ्गाः स्वर्गापवर्ग निपेक्ष निजान्तरङ्गाः कल्पागमाकल नयाकुलताम् लभन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः स्वर्गापवर्ग पदवीम् परमांशयन्तः मर्त्या मनुष्य भुवने मतिमाश्रयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् श्रीभूमिनायक दयादि गुणामृताब्दे देवाधिदेव जगदेक शरण्य मूर्ते श्रीमन् अनन्त गरुडाधि विरचिताङ्घ्रे श्रीवेङ्कटाचलपते तव सुप्रभातम् श्रीपद्मनाभ पुरुषोत्तम वासुदेव वैकुण्ठ माधव जनार्दन चक्रपाणे श्रीवत्स चिह्न शरणागत पारिजाता श्रीवेङ्कटाचलपते तव सुप्रभातम् कन्दर्प दर्प हर सुन्दर दिव्य मूर्ते कान्ताकुचाम्बुर्ह कुट्मिल लोल दृष्टे कल्याण निर्मल गुणाकर दिव्य कीर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् मीनाकृते कमठ कोल नृसिंह वर्णिन् स्वामिन् परश्वत तपोधन रामचन्द्र शेषांश रामय दुनन्दन कल्कि रूप श्रीवेङ्कटाचलपते तव सुप्रभातम् येला लवङ्ग घनसार सुगन्ध तीर्थम् दिव्यम् वियत्सरसि हेम घटीषु पूर्णम् धृत्वाद्य वैदिक शिरोमणय प्रहृष्टाः स्तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् भास्वानुदेति विकचानि सरोरुहाणि सम्पूरयन्ति निनदैः ककुभो विहङ्गाः श्रीवैष्णवात्सत कमर्थित मङ्गलास्ते धामाश्रयन्ति तव वेङ्कट सुप्रभातम् ब्रह्मादयः सुरवराः स महर्षयस्ते सन्तः सनन्दन मुखास्तव योगि वर्याः धामान्तिके तव हि मङ्गल वस्तु हस्ताः श्रीवेङ्कटाचलपते तव सुप्रभातम् लक्ष्मी निवास निरवद्य गुणैक सिन्धो संसार सागर समुत्तरणैक सेतो वेदान्त वेद्य निज वैभव भक्त भोग्य श्रीवेङ्कटाचलपते तव सुप्रभातम् लक्ष्मी निवास निरवद्य गुणैक सिन्धो संसार सागर समुत्तरणैक सेतो वेदान्त वेद्य निज वैभव भक्त भोग्य श्रीवेङ्कटाचलपते तव सुप्रभातम् इत्थम् वृषाचलपतेरिह सुप्रभातम् ये मानवा प्रतिदिनम् पठितुम् प्रवृत्ताः तेषाम् प्रभात समये स्मृतिरङ्गभाजाम् प्रज्ञाम् परार्थ सुलभाम् परमाम् प्रसूते इत्थम् वृषाचलपतेरिह सुप्रभातम् ये मानवाः प्रतिदिनम् पठितुम् प्रवृत्ताः तेषाम् प्रभात समये स्मृतिरङ्गभाजाम् प्रज्ञाम् परार्थ सुलभाम् परमाम् प्रसूते कमलाकुचचूचुककुङ्कुमतो नियतारुणिता तुलनीलतनु कमलायतलोचन लोकपते विजयी भव वेङ्कटशैलपते కమలాకుచూచుక కుంకుమతో నియతారుణితాతుల నీలతను కమలాయతలోచనలోకపతే విజయీ భవ వెంకటశైలపతే స చతుర్ముఖ షణ్ముఖ పంచముఖ ప్రముఖాఖిల దైవత మౌళిమణి శరణాగత వత్సల సారనిధే పరిపాలయ మామృషశైలపతే అతివేల దయా తవ దుర్విషహైరను వేల కృతైర పరాదశతైః భరితం త్వరితం వృషశైలపతే పరయా కృపయా పరిపాహి హరే అధివెంకటశైలముదారమతేర్జనతాభిమతాధికదానరతాత్ పరదేవతయా గదితాన్నిగమై కమలాదయితాన్న పరం కలయే కలవేణురవావశగోపవధూశతకోటివృతాస్మరకోటి సమాత్ ప్రతివల్లవికాభిమతాత్ సుఖదాత్ వసుదేవ సుతాన్న పరం కలయే అభిరామ గుణాకర దాశరథే జగదేక ధనుర్ధర ధీరమతే రఘునాయక రామ రమేశ విభో వరదో భవదేవ దయా జలధే అవనీత నయాకమనీయకరం రజనీకర చారుముఖాంబురుహం రజనీచర రాజ తమో మిహిరం మహనీయమహం రఘురామమయే సుముఖం సుహృదం సులభం సుఖదం స్వనుజం చ సుఖాయ మమోఘశరం అపహాయ రఘుద్వహమన్యమహం న కథంచన కంచన చాతు భజే వినా వెంకటేశం ననాథో ననాథ సదా వెంకటేశం స్మరామి స్మరామి హరే వెంకటేశ ప్రసీద ప్రసీద ప్రియం వెంకటేశ ప్రయచ్ఛ ప్రయచ్ఛ వినా వెంకటేశం ననాథో ననాథ సదా వెంకటేశం స్మరామి స్మరామి హరే వెంకటేశ ప్రసీద ప్రసీద ప్రియం వెంకటేశ ప్రయచ్ఛ ప్రయచ్ఛ అహం దూరతస్తే పదాంబోజ యుగ్మా ప్రణామేచ్ఛయాగత్య సేవాం కరోమి సకృత్సేవయా నిత్య సేవా ఫలత్వం ప్రయచ్ఛ ప్రయచ్ఛ ప్రభో వెంకటేశ అజ్ఞానినా మయా దోషాన్ శేషాన్ విహితాన్ హరే క్షమస్వత్వం క్షమస్వత్వం శేషశైల శిఖామణే అజ్ఞానినా మయా దోషాన శేషాన్ విహితాన్ హరే క్షమస్వత్వం క్షమస్వత్వం శేషశైల శిఖామణే ఈశానా జగతోత్స్య వెంకటపతేర్విష్ణుః పరాం ప్రేయసీం తద్వక్షస్థల నిత్యవాసరసికాం తత్క్షాంతి సంవర్ధినీం పద్మాలంకృత పాణిపల్లవయుగాం పద్మాసనస్థాం శ్రియం వాత్సల్యాది గుణోజ్వలాం భగవతీం వందే జగన్మాతరం ఈశానా జగతోత్స్య వెంకటపతేర్విష్ణుః పరాం ప్రేయసీం తద్వక్షస్థల నిత్యవాసరసికాం తత్క్షాంతి సంవర్ధినీం పద్మాలంకృత పాణిపల్లవయుగాం పద్మాసనస్థాం శ్రియం వాత్సల్యాది గుణోజ్వలాం భగవతీం వందే జగన్మాతరం శ్రీమన్కృపాజల నిధే కృత సర్వలోక సర్వజ్ఞ శక్తనత వత్సల సర్వశేషిన్ స్వామిన్ సుశీల సులభాశ్రిత పారిజాత శ్రీ వెంకటేశ చరణౌ శరణం ప్రపద్యే ఆనూపురార్పిత సుజాత సుగంధ పుష్ప సౌరభ్య సౌరభకరౌ సమసన్నివేశౌ సౌమ్యౌ సదానుభవనేపి నవానుభావ్యౌ శ్రీ వెంకటేశ చరణౌ శరణం ప్రపద్యే సద్యో వికాసి సముదత్వర సాంద్ర రాగా సౌరభ్య నిర్భర సరోరుహ సామ్య వార్తాం సంయుక్షు సాహస పదేషు విలేఖయంతౌ శ్రీ వెంకటేశ చరణౌ శరణం ప్రపద్యే రేఖామయధ్వజ సుదాకల శాత పత్ర వజ్రాంకుశాంబురుహ కల్పక శంఖ చక్రైః భవ్యైలలంకృత తలౌ పరతత్వ చిహ్నైః శ్రీ వెంకటేశ చరణౌ శరణం ప్రపద్యే తామ్రోదర ద్యుతి పరాజిత పద్మరాగౌ బాహిర్మహోభిరభిభూత మహేంద్ర నీలౌ ఉద్యన్నకాంశుభిరదస్త శశాంక భాసౌ శ్రీ వెంకటేశ చరణౌ శరణం ప్రపద్యే సప్రేమ భీతి కమలాకర పల్లవాభ్యాం संवाहनेऽपि सपदि क्षममादधानौ कान्ताववाङ्मनगोचरसौ कुमार्यौ श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये लक्ष्मीमही तदनुरूप निजानुभावा नीलादि दिव्य महिषीकर पल्लवानाम् आरुण्य संक्रमणिथ किल सान्द्र रागौ श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये नित्यानमद्विति शिवादि किरीट कोटि प्रत्यप्त दीप्त नवरत्न महप्ररोहैः नीराजनाविधि मुदारमुपादधानौ श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये विष्णोपदे परम इत्युदित प्रशंसौ यौ मध्वुत्स इति भोगत्ययाप्युपात्तौ भूयस्तथेति तव पाणितल प्रदिष्टौ श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये पार्थाय तत्सदृश सारथिना त्वयैव यौ दर्शितौ स्वचरणौ शरणम् व्रजेति भूयोऽपि मह्यमिहतौ करदर्शितौ ते श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये मन्मूर्ध्निकाळीय फणे विकटाटवीषु श्रीवेङ्कटाद्रिशिखरे शिरसि श्रुतीनाम् चित्तेऽप्यनन्य मनसाम् सममाहितौ ते श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये अम्लानहृष्यदवनीतलकीर्ण पुष्पौ श्रीवेङ्कटाद्रिशिखराभरणायमानौ आनन्दिता किल मनोनयनौ तवैतौ श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये प्रायः प्रपन्न जनता प्रथमावगाह्यौ मातुस्तनाविव शिशोरमृतायमानौ प्राप्तौ परस्पर तुलामतुलान्तरौ ते श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये सत्त्वोत्तरैः सतत सेव्य पदाम्बुजेन संसार तारक दयार्द्र दृगञ्चलेन सौम्योपयम् त्रिमुनिना मम दर्शितौ ते श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये सत्त्वोत्तरैः सतत सेव्य पदाम्बुजेन संसार तारक दयार्द्र दृगञ्चलेन सौम्योपयम् त्रिमुनिना मम दर्शितौ ते श्रीवेङ्कटेश चरणौ शरणम् प्रपद्ये श्रीश श्रीया घटिकया त्वदुपाय भावे प्राप्ये त्वयि स्वयमुपेयतया स्फुरन्त्या नित्याश्रिताय निरवध्य गुणाय तुभ्यम् स्याम् किङ्करो वृष गिरीश न जातु मह्यम् श्रियः कान्ताय कल्याण निधये निधयेऽर्थिनाम् श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् श्रियः कान्ताय कल्याण निधये निधयेऽर्थिनाम् श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् लक्ष्मी सविभ्रमालोक शुभ्रू विभ्रम चक्षुषे चक्षुषे सर्वलोकानाम् वेङ्कटेशाय मङ्गलम् श्रीवेङ्कटाद्रिशृङ्गाग्रमङ्गलाभरणाङ्घ्रयेः मङ्गलानाम् निवासाय वेङ्कटेशाय मङ्गलम् सर्वावयव सौन्दर्य सम्पदा सर्वचेतसाम् सदा सम्मोहनायास्तु वेङ्कटेशाय मङ्गलम् नित्याय निरवध्याय सत्यानन्द चिदात्मने सर्वान्तरात्मने श्रीमद्वेङ्कटेशाय मङ्गलम् स्वतः सर्वविने सर्वशक्तयः सर्वशेषिणे सुलभाय सुशीलाय वेङ्कटेशाय मङ्गलम् परस्मै ब्रह्मणे पूर्णकामाय परमात्मने प्रयुञ्जे परतत्त्वाय वेङ्कटेशाय मङ्गलम् आकालतत्त्वमश्रान्तमात्मनाममनुपश्यताम् अतृप्त्यमृतरूपाय वेङ्कटेशाय मङ्गलम् प्रायः स्वचरणौ पुंसाम् शरण्यत्वेन पाणिना कृपया दिशते श्रीमद्वेङ्कटेशाय मङ्गलम् दयामृत तरङ्गिन्यास्तरम् गैरिव शीतलैः अपाङ्गैः सिञ्चते विश्वम् वेङ्कटेशाय मङ्गलम् स्रग्भूषाम्बरहेतीनाम् सुषमावह मूर्तये सर्वार्तिशमनायास्तु वेङ्कटेशाय मङ्गलम् श्रीवैकुण्ठ विरक्ताय स्वामि पुष्करणीतटे रमया रममाणाय वेङ्कटेशाय मङ्गलम् श्रीवैकुण्ठ विरक्ताय स्वामि पुष्करणीतटे ரமயா ரமமாணாய வெங்கடேஷாய மங்களம். ஸ்ரீமத் சுந்தரணா மாத்ரு முனிமானச வாசினி சர்வலோக நிவாசாய ஸ்ரீநிவாசாய மங்களம். மங்களா சாசன பரே மதாச்சாரிய புரோகமை சர்வேச்ச பூர்வைராச்சாரியை சஸ்கிருதாயாஸ்து மங்களம். மங்களா சாசன பரே மதாச்சாரிய புரோகமை சர்வேச்ச பூர்வைராச்சாரியை ஸ்வஸ்கிருதாயாஸ்து மங்களம்.